यत्र यत्र गीता कक्षा प्रवर्तते तत्र तत्र तन्मुखे प्रायः श्लोकोऽयं जप्यते एव सर्वेण अपि छात्रेण सर्वेण अपि आचार्येण च। सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः पार्थो वत्स सुधीर्भोक्ता दुग्धं गीतामृतं महत् इति। तत्र चित्रमिदं वर्णितमस्ति यत् गावः वर्तन्ते पुनः ते उपनिषदः खादित्वा सारांशेन अस्माभिः गीता लभ्यते। तत्र च दोग्धा स्वयं श्रीकृष्णः वत्सः अर्जुनः वयं सर्वेऽपि भोक्तारः च। तत्र न केवलं गीतायाः माहात्म्यं वर्णितं न केवलं श्रीकृष्णस्य माहात्म्यं वर्णितं प्रत्युत श्री अर्जुनस्य पात्रता अपि वर्णिता भवति। यतोहि यदि कुत्रचित् कश्चन योग्यः आचार्यः विद्यते परन्तु योग्यच्छात्रः नैव विद्यते तर्हि उपदेशावसरः नष्टः भवति। प्रत्युत यदि अर्जुनसदृशः कश्चित् वर्तते तर्हि न केवलं सः छात्रः उपदिष्टः भवति प्रत्युत वयं सर्वेऽपि भक्ताः उपदिष्टाः भवेम। तथैव एतावता वाल्मीकेः रामायणं पठन्तः स्मः वयं, पुनश्च तत्र चतुर्मुखेन श्रीवाल्मीकिः उपदिष्टः यत् कृत्स्नम् अपि रामायणं विरचनीयमस्ति भवता सर्वम् अपि श्लोकेन इति। तच्च वाल्मीकिना अङ्गीकृतं च, तच्च कार्यं तेन कृतं च। किन्तु तदा चिन्ता जाता, सः वाल्मीकिः महाप्राज्ञः रामायणं कृत्वापि चिन्तयामास कोऽन्वेतत् प्रयुञ्जीयात् इति। को वा एतत् रामायणं प्रयुञ्जीयात्, एतस्य कार्यस्य किं प्रयोजनम् इति। यतोहि तावता वत्सः कः? गीतापठनसमये तु अर्जुनः आसीत्, किन्तु रामायणस्य सन्दर्भे तु कः वा वत्सः स्यात्? तस्मिन्नेव समये यदा चिन्तामग्नः आसीत् श्रीवाल्मीकिः, द्वौ मुनिवेशौ आगतौ। वाल्मीकिः तु आश्रमे एव वसति, तत्र द्वौ बालकौ आगतौ। तौ च धर्मज्ञौ, तौ च मुनिवेशौ, तौ च मेधाविनौ। तौ च कौ? लवश्च कुशश्च कुशीलवौ। तर्हि एतौ द्वौ कुशीलवौ आगत्य वाल्मीकेः पादौ गृहीतवन्तौ। तदा वाल्मीकिः चिन्तयामास, इदानीमेव अहं चिन्तयनासम्, तत्र कम् उपदिशामि इति। तदा एव एतौ द्वौ आगतौ, तत्र ईश्वरेण एव पुनः अयम् अपि उपदेशः क्रियते। तदा सः पुनः चिन्तयति, एतौ द्वौ तु वेदेषु परनिष्ठितौ, एतावता यत्किमपि अहम् उपदिष्टवान्, एताभ्यां लघुभ्यां बालकाभ्यां सम्यक् सर्वमपि गृहीतम्, अतः एतौ द्वौ इव अहं पुनः उपदिशामि, रामायणकाव्यम् एतौ द्वौ एव पाठयामि। तर्हि तौ अग्राहयत एषः श्रीवाल्मीकिः। एवं सम्पूर्णमपि रामायणं वाल्मीकिः तौ द्वौ कुशीलवौ सह पाठयति स्म। तौ अपि राजपुत्रौ सम्पूर्णमपि काव्यं सम्यक् अधीतवन्तौ, पुनश्च अभ्यासबाहुल्यात् सर्वं कण्ठस्थीकृतम्, वाचोविधेयं तत्सर्वं कृत्वा काव्यं सर्वमपि वाचोविधेयम् अभवत्। पुनश्च सर्वत्र गत्वा गायन्तः स्म एतौ द्वौ। पूर्वमपि वाल्मीकिना वर्णितमासीत् यत् एतौ स्वरसम्पन्नौ सम्यक् गायतः स्म। यथा गन्धर्वौ स्वर्गे गायतः तथैव एतौ द्वौ अपि बालकौ गायतः स्म। एकदा कुत्रचित् ऋषीणां च अन्येषां साधूनां च मेलनमासीत्। तस्मिन् मेलने तस्मिन् समागमे मध्ये सभम् इदं काव्यमेव कुशीलवौ अगायताम्। तत् गानं श्रुत्वा सर्वेऽपि मुनयः बाष्पपर्याकुलेक्षणाः जाताः। तेषां सर्वेषामपि नेत्रेषु तत्र अम्बूनि दृश्यन्ते स्म, अश्रूणि पतन्ति स्म आनन्दातेव। ते सर्वेऽपि मुनयः पौनःपुन्येन प्रशशंसुः प्रशंसां कुर्वन्ति स्म। किं वदन्ति स्म एते मुनयः? अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः। तत्र गीतस्य माधुर्यम् अधिकं वर्तते, श्लोकानामपि माधुर्यम् अधिकं वर्तते इति। कदाचित् अद्यत्वेऽपि वयं भारतीयसङ्गीतप्रदर्शनार्थं गच्छामः, तत्र तत्र गायकाः सम्यक् गायन्ति। क्वचित् अस्माकं मातृभाषया एव गायन्ति, तथापि यदि गीतम् अपरिचितं भवति तर्हि किं गायन्ति इत्येव अस्माभिः अवगन्तुं नैव शक्यते। यदि गीतं परिचितं भवति तर्हि किञ्चित् वा ज्ञातुं शक्नुमः। अत्र तथा न आसीत्। इत्युक्ते केवलं गीतस्य माधुर्यं न, किन्तु श्लोकानाम् अपि तात्पर्यं सर्वैः गृहीतं यथा। तर्हि एवं सर्वेऽपि मुनयः वदन्ति स्म, अहो गीतस्य माधुर्यम्, अहो श्लोकानां च माधुर्यम् इति। पुनश्च तथा गीतं तथा वाल्मीकिना शब्दप्रयोगः कृतः यथा सर्वमपि प्रत्यक्षमिव दर्शितम्। एते तु मुनयः ध्यानशीलिनः, प्रतिदिनमपि ध्यानं कुर्वन्ति, प्रतिदिनमपि योगारूढाः मनसि सर्वमपि पश्यन्ति इव। तथापि एतस्मात् गानात् सर्वम् अपि रामायणचरितं प्रत्यक्षम् इव दर्शितं। ते स्वयमेव पश्यन्ति इव, सर्वमपि स्वयम् अनुभवन्ति इव। तथा सर्वमपि विरचितं वाल्मीकिना, तथा सर्वमपि गीतम् एताभ्यां बालकाभ्याम्। पुनश्च एते सर्वेऽपि मुनयः तथा मुदिताः यथा किमपि दातुम् इच्छन्ति स्म। एते सर्वेऽपि सन्न्यासिनः इव, अतः दातुं वस्तुतया किमपि न विद्यते स्म, तथापि किञ्चित् दातुम् इच्छन्ति स्म सर्वेऽपि मुनयः। तदा किं कृतवन्तः? यद् तेषां हस्तेषु वर्तते स्म तदेव दत्तवन्तः। एवं प्रीतः कश्चित् कलशं ददौ, सः कलशं दत्तवान्। अपरः वस्त्रं वल्कलं दत्तवान्। अपरः कश्चन कृष्णाजिनं दत्तवान्। अपरः यज्ञसूत्रं यज्ञोपवीतमेव प्रदत्तवान्। अपरः कमण्डलुम्, अपरः आसनम्, अपरः कौपीनम्, अपरः काषायं वस्त्रम्, अपरः काष्ठभारम्। तथा यद्यद् विराजते स्म हस्ते तत्तद्दीयते स्म। तथा सर्वेऽपि मुनयः प्रभाविताः आसन्। तथापि केचन मुनयः रिक्तहस्ताः इव, अकिञ्चित्कराः। ते तु किं कुर्युः? दातुं किमपि नासीत्। अतः केचन स्वस्ती इति अवदन्। अपरे तु मुनयः आयुष्यम् अवदन्। आयुष्यम् प्राहुः आशीर्वचनम् दत्तवन्तः। यथाशक्ति सर्वेनापि मुनिना यत्किञ्चित् प्रदत्तमासीत्। यतोहि कुशीलवौ तथा गीतवन्तौ यथा सर्वमपि रामचरित्रम् प्रत्यक्षमिव दर्शितम्। पुनश्च एकस्मिन्नेव समागमे एतादृशम् कार्यम् कृतमिति न, प्रत्युत सर्वदा सर्वत्र एतादृशाचारः इव। सर्वासु अपि रत्यासु सर्वेषु अपि राजमार्गेषु एवमेव कुर्वन्तौ आस्ताम् एतौ लघुबालकौ। एकदा भरदाग्रजः श्रीरामः एव कुत्रचित् विचरन् आसीत्। सः पुनः एतद् ददर्श, एतद् दृष्टवान्। पश्य, यद् स्वयं श्रीरामः आगत्य सर्वमपि दृष्टवान् आसीत्, किन्तु तेन नैव ज्ञायते स्म यद् एतौ द्वौ मम बालकौ इति। तथापि एतत् सर्वं दृष्ट्वा सः अपि प्रभावितः, अतः स्ववेश्म तौ आनीय, तर्हि स्वगृहम् आनीतवान् सः श्रीरामः। एवमेव पूजयामास एतौ पूजार्हौ। तर्हि राजा यथा सत्कार्यं करोति तथैव एतयोः अपि सत्कारः कृतः आसीत्, आचरितः आसीत् श्रीरामेण। पुनश्च यदा एतौ आहूतौ आस्ताम् तदा तु अन्ये सर्वे अपि आमन्त्रिताः आसन्। सर्वेऽपि ऋषयः, सर्वेऽपि सचिवाः, एवं पूर्णसभा आसीत्। पुनश्च श्रीरामः उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा श्रूयतामेतदाख्यानम् अनयोः देववर्चसोः इति। सः एव श्रीरामः एव स्वयं लक्ष्मणमुद्दिश्य शत्रुघ्नमुद्दिश्य भरतमुद्दिश्य च उक्तवान् एतदाख्यानम् श्रूयताम् श्रवणार्हम् इदम् काव्यम् इति। तद् सर्वमपि श्रुत्वा यथापूर्वं सर्वेऽपि मुनयः मुदिताः आसन्, तथैव इदमिदानीमपि रामसभायामेव सर्वे अपि भागगृहीतारः मुदिताः हर्षिताः जाताः। ह्लादयत् सर्वगात्राणि मनांसि हृदयानि च, तर्हि तेषां गात्रं शरीरं ह्लादितं हर्षितं जातम्। तेषां सर्वेषामपि मनः हर्षितं जातम्। तेषां सर्वेषामपि हृदयं हर्षितं जातम्। तर्हि शरीरे परिवर्तनं जातम्, मनसि परिवर्तनं जातम्, पुनः हृदये परिवर्तनं जातम्। केचन तु भक्तिशीलाः, केचन तु मननशीलाः, तथापि एतस्मात् श्रवणात् सर्वे अपि तृप्ताः भवन्ति, यतोहि सर्वरसयुक्तं काव्यमिदं श्रीवाल्मीकिना विरचितमस्ति। एवं रामवचः प्रचोदितौ एतौ काव्यम् अगायताम्। स्वयं सः चापि रामः आसक्तमना बभूव। यदि स्वयं श्रीरामस्य आसक्तिः विद्यते, अस्माकं तु प्रश्नः एव न प्रष्टव्यः। यदि तस्य आसक्तिः अस्ति, अवश्यम् अस्माकं सर्वेषामपि श्रोतॄणाम् आसक्तिः विद्यते एव। एवं कुशीलवौ एव सत्पात्रे स्तः, यथा गीताकथायाः अर्जुनः तथैव श्रीरामायणस्य कुशीलवौ स्तः। अतः तौ पूजार्हौ नत्वा अग्रे पुनः कथाम् अनुवर्तयामः इति शम्।